अथ नीतिशतकम्। दिक्कालाद्यनवच्छिन्ना अनन्तचिन्मात्रमूर्तये स्वानुभूत्येकमानाय नमः शान्ताय तेजसे। बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः अबोधोपहताश्चान्ये जीर्णमंगे सुभाषितम्। वरं पर्वतदुर्गेषु भ्रांतं वनचरैः सह न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि। स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानां। साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम्। इति श्रीभर्तृहरेः नीतिशतकोद्धृतश्लोकाः।